एषः रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः ध्रुव भट्टराई। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य स्थायी समिति उपवेश पुनस्थगितकृतो वर्तते। ह्यः पूर्वाह्णस्य एकादशवादनाय निर्धारित उपवेश स्व आषाढस्य चतुर्विंशम् दिवसम् बुधवासरम् यावत् स्थगितकृत इति नेकपा दलस्य प्रचार विभागस्य उपप्रमुख सूर्य थापा अज्ञापयत्। प्रधानमन्त्रिणा दलाध्यक्षस्य च केपी शर्मा ओलिनः, अपराध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य च मध्ये दले उत्पन्नाया समस्या समाधानाय अतिरिक्त विमर्शनम् आवश्यकम् सम्मुतम् इत्यतः उपवेश स्थगितकृत इति प्रचार विभागस्य उपप्रमुख थापा अवदत्। अत्रान्तरे आन्तरिक विवादस्य समाधानाय प्रधानमन्त्रिणा नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षस्य च केपी शर्मा ओलिनः, अपराध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य च मध्ये ह्यो विमर्शनम् अभवत्। प्रधानमन्त्री निवासी बालवटार स्थाने विहिते विमर्शने सहमति प्रयासु विहित इति प्रधानमन्त्रिणा संचार परामर्शदाता सूर्य थापा अज्ञापयत्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समिति उपवेश सम्पन्नो वर्तते। सानेपा भर्तिनी दलस्य केन्द्रीय कार्यालय सम्पन्नेन उपवेशेन आगामिन चतुर्दश महाधिवेशनस्य नूतन कार्यतालिकानुमोदन प्रवृत्त निर्णया विहिता सन्तीति महामन्त्री पूर्णबहादुर खड्का अज्ञापयत्। उपवेशन संघीय संसद अधिवेशनस्य हठात् अन्तीकरणस्य विषय गभीरतापूर्वक मतः एवं संसदि विभिन्नानां महत्वपूर्णानां विधेयकानां प्रस्तावानां च विचाराधीनताया तथ्यम् उपेक्ष्य संसद सञ्चाल्यमानस्य उपवेशस्य आह्वानकारिण्यौ अन्तकारिण्यौ च परम्पराम् पद्धतिम् च उल्लङ्घ्य अधिवेशनस्य अन्तीकरणम् आपत्तिजनकमस्तीति ज्ञापितम् वर्तते। गृहमन्त्रालयेन मुखावरणिकाम् अधृत्वा गृहात् बहिः न निष्क्रान्तुम् सर्वचार जना अनुरुद्धा वर्तन्ते। कोरोना विषाणु संक्रमणम् वर्धमानम् अस्ति इत्यतः सावधानताय अवलम्बनाय अत्यावश्यक कार्य विना गृहात् बहिः न निष्क्रान्तुम् मुखावरणिकाम् अनिवार्यतया धर्तुम् परस्परम् मीटरद्वयस्य सामाजिकम् दूरीम् संस्थापयितुम् चेति व्यवस्थायै देशस्य सप्तसप्तत्याम् एव जनपद प्रशासन कार्यालयेषु परिपत्रम् प्रेषितमस्तीति गृहमन्त्रालयेन ज्ञापितम् वर्तते। गृहात् निष्क्रमण समये मुखावरणिकाम् अधृतायाम् सत्याम् प्रहरिणा निग्रहितुम् च शक्यते इति गृहमन्त्रालयस्य प्रवक्ता केदारनाथ शर्मा अज्ञापयत्। गतदिने अतिरिक्त शतद्वयम् चतुष्षष्टि जना कोरोना विषाणु संक्रमणात् मुक्तिम् प्राप्य गृहम् प्रत्यावृता सन्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य गतदिवसीय संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापक डाक्टर जागेश्वर गौतमः गतदिने विभिन्नानाम् स्थानानाम् एकान्तवास केन्द्रेभ्य शतद्वयम् चतुष्षष्टिश्च जना संक्रमणात् मुक्ता अभवन् एवम् इदानीम् संक्रमणात् मुक्तिम् प्राप्य गृहम् प्रत्यावृतानाम् जनानाम् समग्र संख्या 660111 च प्राप्ता स्थिति अज्ञापयत्। यो देशस्य विभिन्नेषु स्थानेषु विद्यमानेषु पञ्चविंशत्यां प्रयोगशालासु सहस्र चतुष्टयस्य सप्तशतस्य एकविंशतिश्च निदर्शनानां रियल टाइम पीसीआर नामधेयेन विधिना विहिते परीक्षणे शते अशीत्यां च जनेषु कोरोना विषाणु संक्रमणं पुष्टीभूतं वर्तते। एवमेव बागलुङ जनपदस्य निस्तिखोला ग्रामपालिकाया तृतीयवडा क्षेत्र निवासिन 29 वर्षीयस्य पुरूषस्य रविवासरे मृत्युना सह कोरोना संक्रमणस्य पश्चात् मृतानां जनानां समग्र संख्या 35 प्राप्ता वर्तते। स भारतात् क्षयरोगस्य उपचारं कारयित्वा प्रत्यावर्तनानन्तरं सुरक्षणावासे स्थितः आसीत्। कोरोना विषाणु कोविड 19 संक्रमणम् उपत्यकायां वर्धितम् अस्ति। उपत्यकायां जनानां प्रवेशनेन सहैव संक्रमणम् वर्धितम् वर्तते। ह्य दृष्टानां 80+ संक्रान्तानां मध्ये 54 जना उपत्यकाः सन्ति। नेपाल वायुसेवा निगमस्य सप्तसु उड्डयन कर्मचारीषु कोविड 19 संक्रमणम् पुष्टीभूतम् वर्तते। आरक्षण उड्डयने सहभागिनां चालकदलस्य सप्तानां सदस्यानां पीसीआर विधि परीक्षण विवरणम् लक्षणानुकूलम् दृष्टमिति निगमसौ ज्ञापयति। एतेषाम् उपचार सम्बद्ध आवश्यक व्यवस्था निगम व्यवस्थापनेन विधीयमान स्थिति ज्ञापयता निगमेन अतिरिक्ताम् सावधानताम् अवलम्ब्य पूर्व निर्धारितानि उद्धारोड्डयनानि अथवा सञ्चालिष्यन्ति इति स्पष्टीकृतम् वर्तते। निगमेन उद्धारोड्डयनेषु सम्मिलितानां चालकदलस्य सदस्यानाम् अन्येषाम् उड्डयन कर्मचारिणां च कृते आवश्यक निर्धारित मापदण्डस्यानुसारेण दायित्वं प्रपूर्यमाणम् अस्तीति विज्ञप्तौ उल्लिखितं वर्तते। स्वास्थ्यकर्मिणि कोरोना संक्रमणस्य पुष्टि अनन्तरं पिधापिता सल्यान चिकित्सालय पुनः सञ्चालितो वर्तते। आषाढस्य एकादश दिवसात् पिधापितस्य चिकित्सालयस्य सम्पूर्ण सेवा गतदिनात् पुनः सञ्चालने आनीता सन्तीति चिकित्सालयेन ज्ञापितमस्ति। राष्ट्रिय पोषण सम्पुटिका एक कार्यक्रमस्य अन्तर्गत षण्मासतः पञ्चवर्षावधिकाभ्यो बालबालिकाभ्य पोषण सम्पुटिका ए सेवनस्य कार्यं गरिदिने प्रारब्धमस्ति। ह्य अध्यक्ष आराष्ट्रम बालबालिकाभ्य पोषण सम्पुटिका ए इत्यनेन सह युका कृमिनाम औषध सेवनम विद्यमानमस्तीति स्वास्थ्य सेवा विभागस्य बाल स्वास्थ्य महाशाखा ज्ञापयति। स्वास्थ्य जनसंख्या मन्त्रालयेन कोविड 19 कारणेन गत वैशाख मासस्य षष्ठी सप्तमे च दिवसयो स्थगित कार्यक्रमसौ पुनः संचालितो वर्तते इति स्वास्थ्य सेवा विभागस्य पोषण शाखा प्रमुख केदार पराजुली अज्ञापयत्। अधिकार दुरूपयोगानुसन्धान योगेन मार्ग विभागस्य तात्कालिकस्य सुपर्यवेक्षकाभियन्तु चन्द्रनारायण यादवस्य विरुद्धे आसन्न कोटिद्वय रूप्यकाणि परिमाणस्य भ्रष्टाचारस्य न्यायिक प्रकरणं पञ्जीकारितं वर्तते। यादवेन पदे विद्यमानावस्थायाम् अवैधरूपेण असीमित सम्पद् अर्जितेति पुष्टे अनन्तरं यादवस्य विरुद्धे 1,85,00,000 च हानिवित्तम् अभियाच्य गदिने काष्ठमण्डप वर्तिनी विशेष न्यायालय न्यायिक प्रकरणं पञ्जीकारितमस्तीति आयोगेन ज्ञापितमस्ति। स्वास्थ्य जनसंख्या मन्त्री भानुभक्त ढकालः भासते सर्वेषां नागरिकाणां स्वास्थ्य सेवायां समानाधिकारं सुनिश्चेतुं स्वास्थ्यस्य विभिन्न सुविधासु अनुसन्धानम् आवश्यकं वर्तते। नेपाल स्वास्थ्य अनुसन्धान परिषदा आयोजितं स्वास्थ्य जनसंख्या वैज्ञानिकानां षष्ठम राष्ट्रिय सम्मेलनं गतदिने काष्ठमण्डपे उद्घाटन मन्त्री ढकालः अगदत् स्वास्थ्य सेवां सर्वसुलभां कारयितुं मन्त्रालयेन परिषद सहकार्ये विभिन्न कार्यक्रम सञ्चाल्यमाना वर्तन्ते। इति समाचारः।